यस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचको रामहरि दालः प्रधानमन्त्री केपी शर्मा ओली प्रतिनिधिसभाया अद्यतनोपवेशम् सम्बोधयति। राष्ट्रियसभाया सांसदस्य दुर्गा प्रसाद उपाध्यायस्य यो भूतस्य निधनस्य कारणेन प्रतिनिधिसभाया गतदिवसीय उपवेशाय निर्धारितम् प्रधानमन्त्रिणः ओलिनः सम्बोधनम् अद्य सारितमस्ति। अद्य पूर्वान्नस्य एकादशवादने उपविश्यमाने प्रतिनिधिसभाया उपवेशे प्रधानमन्त्री ओली सम्बोधनम् विदधातीति प्रधानमन्त्रिणः संचार परामर्शदाता सूर्य थापा अज्ञापयत्। प्रधानमन्त्रिणा ओलिना सम्बोधनस्य माध्यमेन स्वनेतृत्वस्य सर्वकार संगठनस्य वर्षद्वय पूर्णस्य अवसरे एतस्मिन् अवधौ सर्वकारेण विहितानां कार्याणां प्राप्तानाम् उपलब्धीनां सामयिकतायाश्च विषयेषु सदनं ज्ञाप्यते इति परामर्शदाता थापा अवोधयत्। प्रतिनिधिसभाया गतदिवसीयोपवेशेन राष्ट्रियसभाया सांसदस्य दुर्गा प्रसाद उपाध्यायस्य निधने शोकप्रस्ताव पारितीकृतो वर्तते। चतुस्सप्तत्यधिक द्विशततम विक्रम वर्षस्य निर्वाचने पञ्चम प्रदेशात् नेपाली कांग्रेसदलस्य पक्षत राष्ट्रियसभाया सदस्य निर्वाचितस्य उपाध्यायस्य एकपञ्चाशतो वर्षाणां वयसि अर्बुद रोगस्य उपचारस्य क्रमे यो निधनम् अभवत्। शोक प्रस्तावम् पारितीकृत्य यस्तनोपवेशः स्थगितीभूत इति सभामुख अग्निप्रसाद सापकोटा अज्ञापयत्। प्रतिनिधिसभायाः अपरोपवेशः अद्य पूर्वान्नस्य एकादशवादने वसति। प्रधानमन्त्री केपी शर्मा ओली वदति अनुशिष्टः राष्ट्रं प्रति समर्पितश्च युवा प्रत्येकं राष्ट्रस्य आवश्यकता वर्तते। राष्ट्रिय सेवादलेन संचालितस्य पञ्चदश चरणस्य वरिष्ठ समूहस्य प्रशिक्षणस्य दीक्षान्त समारोहम् यो ललितपुरे सम्बोधयन् प्रधानमन्त्री ओली अवदत् यूनाम् चातुर्धिक विकासे सहयोक्तम् सर्वकारः प्रतिबद्धो वर्तते। प्रधानमन्त्री ओली अकथयत् दक्षाम् सक्षमाम् जनशक्तिम् विकसय्य प्राकृतिक स्रोतांसि सदुपयुज्य च राष्ट्रम् समृद्धम् कारयिष्यते। शतदिवसीये अस्मिन् प्रशिक्षणे सहभागिनः पञ्चशतम् नवच विद्यार्थिनो दीक्षिता सन्ति। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः भाषते बुढ़ी गण्डकी जलविद्युत परियोजनायाः कार्यम् भाविसमये शीघ्रमेव गतिशीलम् भविष्यति। सप्तमम् धारिङ्ग महोत्सवम् यः धारिङ्गवेशी स्थाने उद्घाटन अध्यक्ष प्रचण्ड आभासत परियोजना क्षेत्रस्य अन्तर्गतायाः भूमे क्षतिपूर्ति प्रदानस्य कार्यम् समाप्तम् अस्तीति कारणात् शीघ्रमेव अवशिष्ट कार्यम् प्रारप्स्यते। संचार सूचना प्रविधि मन्त्री गोकुल प्रसाद बास्कोटा वदति वैद्युताङ्कन प्रणाल्याः कार्येषु वैधताम् संस्थापयितुम् सूचना प्रविधि विधेयकम् आवश्यकम् वर्तते। क्यान नाम्नो नेपाल कम्प्यूटर एसोसिएशन संघस्य षड्विंश संस्करणस्य एतद् विक्रम वर्षीयम् क्यान इन्फोटेक प्रदर्शनीम् पूर्वेद्युः काष्ठमण्डपे उद्घाटयन् मन्त्री बास्कोटा वैद्युताङ्कन सम्बद्धम् अपराधम् न्यूनीकर्तुम् व्यावसायिक कार्येषु पारदर्शिताम् संस्थापयितुञ्च सूचना प्रविधि विधेयकम् आनीतम् इति समस्पष्टयत्। संचार मन्त्री बास्कोटा कमपि पूर्वाग्रहम् कृत्वा विधि निर्मितो नास्तीति स्पष्टयन् सवित्तम् दण्डस्य व्यवस्था न्यूनीकर्तुम् शक्यते इति अवोधयत्। मन्त्री बास्कोटा सर्वकारः नैय क्षेत्रेण सह सहकार्यम् विधातुम् तत्परोस्थिति भासमानः राष्ट्रिय ज्ञानोद्यानस्य अभिकल्पम् निर्माय आनेतुम् नैय क्षेत्रम् अनुरुणत्। सर्वोच्च न्यायालयेन बालुवाटारा स्थानस्य ललिता निवास प्रकरणे पूर्व प्रधानमन्त्री द्वयस्य माधव कुमार नेपालस्य डाक्टर बाबुराम भट्टराई इत्यस्य च भ्रष्टाचारस्य न्यायिक प्रकरणस्य उन्मुक्तेर् लिखित कारणस्य प्रस्तुत्यै आदेशः प्रदत्तो वर्तते। प्रधान न्यायाधीशस्य चोलेन्द्र शमशेर जवराभिदस्य एकल न्यायपीठेन यः पूर्व प्रधानमन्त्री द्वयाय भ्रष्टाचरणस्य न्यायिक प्रकरणात् उन्मुक्ति प्रदानस्य लिखित कारणम् पञ्चदशानाम् दिनानाम् अभ्यन्तरे प्रस्तुतम् आदिष्टमस्ति। अधिकार दुरूपयोगानुसन्धान आयोग प्रवृत्तीन् विपक्षिणो विधाय गत माघमासस्य ऊनत्रिंशे दिवसे वरिष्ठाधिवक्त्रा बालकृष्ण न्यौपाने विधेन न्यायिक निवेदनम् पञ्जीकारितम् आसीत्। सर्वकारेण प्रधानमन्त्री वृत्त्युपादन कार्यक्रमस्य क्रियान्वयनार्थं विभिन्नेभ्य स्थानीय स्तरेभ्य अब्जद्वयम् रूप्यकाणि सशपथम् निष्कासितानि सन्ति। कार्यक्रमस्य अन्तर्गतम् प्रवर्तमानार्थिक वर्षस्य कृते स्थानीय स्तरस्य अन्तर्गतेषु वृत्त्युपादन सेवा केन्द्रेषु सूचीकृतेभ्यो वृत्तिहीनेभ्यो जनेभ्य वृत्त्युपादन प्रदानस्य उद्देश्येन श्रम वृत्त्युपादन सामाजिक सुरक्षा मन्त्रालयेन वित्तमेतत् निष्कासितम् वर्तते। नगरीय विकास संचार सूचना प्रविधि मन्त्री गोकुल प्रसाद बास्कोटा कथयति नगरीय विकासम् सरलम् मितव्ययिनम् च विधातुम् सम्बद्ध निकायै विकासस्य पूर्वाधारणम् सहप्रयोगे बलम् प्रदातव्यम्। नगर विकास कोषस्य द्वात्रिंशस्य वार्षिकोत्सवस्य अवसरे यः काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री बास्कोटा अब्रवीत् पेयजल मल निष्कासन प्रणाली मार्ग विद्युत प्रभृतीनाम् सम्बद्ध निकायानाम् मध्ये समन्वयम् विधाय विकासस्य पूर्वाधारणम् दीर्घकालिक प्रयोगे बलम् प्रदातव्यम्। कार्यक्रमे राष्ट्रिय पुनर्निर्माण प्राधिकरणस्य प्रमुख कार्यकारी अधिकृता सुशील गिमाली, नगर विकास कोषस्य अध्यक्ष, नगरीय विकास मन्त्रालय सचिवश्च मधुसूदन अधिकारी च विचारम् उपास्थापयताम्। चीनदेशस्य वुहान नगरात् आनीयमानान् नेपालिनः स्थापयितुम् पृथक सुरक्षित परीक्षण स्थलस्य निर्माण कार्यम् प्रवृत्तमस्ति। प्रधानमन्त्री मन्त्रीपरिषद कार्यालय सचिवः नारायणप्रसाद बिणारी पृथक सुरक्षित परीक्षण स्थलम् निर्मितम् अस्तीति ह्यः अज्ञापयत्। प्रदेश सर्वकारेण सप्तमम् राष्ट्रिय प्रजातन्त्र दिवसम् भव्यरूपेण आयोजयितुम् निर्णीतम् वर्तते। राष्ट्रिय प्रजातन्त्र दिवस मूल समारोह समिते ह्यस्तनोपवेशेन जनस्तरादेव स्वत्व भावनया दिवसमम् आयोजयितुम् निर्णीतम् अस्ति। दिवस प्रदेश मूल समारोह समिति अध्यक्षस्य शेरधन राय इत्यस्य उपस्थितौ उपविष्टेन उपवेशेन प्रजातन्त्र दिवसम् आयोजयितुम् विभिन्ना उपसमितयश्च संघटिता सन्ति।